कुमारम् माताजूपतिः समुद्धम् गुहा बिभर्ति न दधाति पित्रे अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहेतमरतौ कमेतम् त्वम् जूपते कुमारम् पेशी बिभर्षि महिषी जजान ऊर्वीर्घकरः शरदो भवर्धा पश्यन् जातम् यदसूतमाता हिरण्यदन्तम् सुजीवन्नमाराक्षेत्रादपश्यमायुधाभिमानम् दानो अस्मा अमृतम् विरक्तिम् मामानीन्द्राक्रीडवन्ननुक्थाः क्षेत्रादपश्यम् सनुतश्चरम् तम् सुमद्योधन्न गुरुशोभयमानम् न दाग्रभ्रन्न जनिष्टहिरः परिग्नीरिज्योपतयोः भवन्ति ये मे मर्यकम् विजवन्तगोभिर्नयेषाम् गोपारनश्चिदास यीम् जगृहुरवते सृजन्त्वा जातिपश्वगुपनश्चिकित्वान् वसाम् राजानम् वसतिम् जनानाम रातयोनिजधर्मर्त्येषु ब्रह्माण्यप्रेरवतम् सृजन्तु निन्द्यारोरिन्द्यासो भवन्तु सुनश्चिच्छेमम् निदीदम् सहस्राद्युपादमुञ्चो असमिष्ठहिषः एवास्मदग्ने विभूमुग्धिपासान् होतश्चिकित्वजिहतु निषद्य नियमानो अपहिमदये प्रमे देवानाम् मृतपावूवाच इन्द्रो विद्वाङ्कलहित्वा चक्षते नाहमग्ने अनुशिष्ठ आगा युज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा रादेवीर्मायासहसे दुरे भाषिते शृङ्गे रक्षसे विनिक्षे उत स्वानासो दिविषम् पग्ने स्तिग्मायुधा रक्षसे हन्त बाहु मदेजितस्य प्ररोजन्ति भा मानवरन्ते परिबाधो अदेवीः एदम् ते स्तोमम् तु विजादवि प्ररथन्नधीरस्वपा अदक्षम् यदि लग्ने प्रदित्वम् देवहर्यास्वर्वतीरपयेनाजयेम ग्रीग्रीवो वृषभो वा वृधानो सत्त्वा अर्यः समजातिवेदाः इदीममग्निममृता अवोचन् बलिषष्म ते मन वे शर्मायम् सद्धविष्म ते मन वे शर्मायम् सत्